బలిక్రియావర్జితసైకతాని స్నానీయ సంసర్గమనాప్నువంతి ఉపాంతవానీరగృహాణి దృష్ట్వా శూన్యాని దూవ్యే సరయూజలాని.
బలిక్రియేతి బలి పూజోపహార స్యాత్ ఇతి విశ్వః బలిక్రియావర్జితాని సైకతాని ఏషాం తాని స్నానీయాని స్నాన సాధనాని చూర్ణాదీని కృచ్చల్యుటో బహుళం ఇతి కరణే అనియర్ప్రత్యయః స్నానీయ సంసర్గం అనుప్రాప్నువంతి సరయోజలాని శూన్యాని రిక్తాని ఉపాంతేషు వానీరగృహాణి ఏషాం తాని చ దృష్ట్వా దూయే పరితప్యే.
తదర్హ సీమాం వసతిం విసృజ్య మామభ్యుపైతుం కులరాజధానీం హిత్వా తనుం కారణమానుషీం తాం యథా గురుస్తే పరమాత్మమూర్తిం.
తదితి తత్ తస్మాత్ ఇమాం వసతిం కుశావతీం విసృజ్య కులరాజధానీం అయోధ్యాం మాం అభ్యుపేతుం అర్హసి కథమివ తే గురుః పితా రామః తాం ప్రసిద్ధాం కారణవశాత్ మానుషీం తనుం మానుషమూర్తిం హిత్వా పరమాత్మమూర్తిం యథా విష్ణుమూర్తిమివ.
తథేతి తస్యః ప్రణయం ప్రతీతః ప్రత్యగ్రహీత్ ప్రాగ్రహరో రఘూణాం పూరప్యభివ్యక్త ముఖ ప్రసాదా శరీరబంధేన తిరోబభూవ.
తథేతి రఘూణాం ప్రాగ్రహరః శ్రేష్ఠః కుశః తస్యాః పురః ప్రణయం యాచ్నాం ప్రతీతః హృష్టస్సన్ తథేతి ప్రత్యగ్రహీత్ స్వీకృతవాన్ పూహు పురాధిదేవతాపి అభివ్యక్త ముఖప్రసాదాసతి ఇష్టలాభాదితి భావః శరీరబంధేన శరీరయోగేన కరణేన తిరోబభూవ అంతర్దధే మానవం రూపం విహాయ దైవం రూపం అగ్రహీత్ ఇత్యర్థః.
తదద్భుతం సంసతి రాత్రివృత్తం ప్రాతర్ద్విజేభ్యో నృపతిశశంస శ్రుత్వా త ఏనం కులరాజధాన్యాః సాక్షాత్ పతిత్వే వృతమభ్యనందన్.
తదితి నృపతిః కుశః తత్ అద్భుతం రాత్రివృత్తం రాత్రివృత్తాంతం ప్రాతః సంసది సభాయాం ద్విజేభ్యః శశంస తే ద్విజాః శ్రుత్వా ఏనం కులరాజధాన్యాః సాక్షాత్ స్వయమేవ పతిత్వే విషయే వృత్తం అభ్యనందన్ పతిత్వేన వృతోసి ఇత్యపూజయన్ ఆశీర్భిరితి శేషః అత్ర గార్గ్యః దృష్ట్వా స్వప్నం శోభనం నైవ సుప్యాత్ పశ్చాద్దృష్టో యస్స పాకం విధత్తే శంశేదిష్టం తత్ర సాధుర్ద్విజేభ్యః తేచాశీర్భిః ప్రీణయేయుర్నరేంద్రం ఇదమపి స్వప్నతుల్యమితి భావః.
కుశావతీం శ్రోత్రియసాత్సకృత్వా యాత్రానుకూలే హనిసావరోధః అనుద్రుతో వాయురివాభ్రవృందైః సైన్యైరయోధ్యాభిముఖః ప్రతస్థే.
కుశావతీమితి సహ కుశః కుశావతీం శ్రోత్రియేషు ఛాందసేషు అధీనాం శ్రోత్రియసాత్ తదధీనవచనే ఇతి సాతిప్రత్యయః శ్రోత్రియశ్చందోధీతే ఇతి నిపాతః శ్రోత్రియశ్చాందసౌ సమౌ ఇత్యమరః కృత్వా యాత్రానుకూలే అహని సావరోధః శాంతఃపరస్సన్ వాయుః అభ్రవృందైరివ సైన్యైః అనుదృతః అనుగతస్సన్ అయోధ్యాభిముఖః ప్రతస్థే.
సా కేతుమాలోపవనా బృహద్భిః विहारशैलानुगते वनागैः सेनारथोदारगृहाप्रयाणे तस्याभवज्जङ्गमराजधानी
सेति केतुमालाः एव उपवनानि यस्यास्सा बृहद्भिः नागैः गजैः विहारशैलैः क्रीडाशैलैः अनुगता इव स्थिता रथाः एव उदारगृहाः यस्यास्सा सा सेना तस्य कुशस्य प्रयाणे जङ्गमराजधानी सञ्चारिणी नगरे इव अभवत् बभूव
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् बभौ बलौघशशिनोदितेन वेलामुदन्वानिवनीयमानः
तेनेति आतपत्रमेव अमलं मण्डलं बिम्बं यस्य तेन कुशेन पूर्वनिवासभूमिम् अयोध्यां प्रति प्रस्थापितः बलौघः आतपत्रवत् अमलमण्डलेन उदितेन शशिना वेलां नियमानः प्राप्यमाणः उदकम् अस्य अस्तीति उदन्वान् उदधिरिव बभौ उदन्वानुदधौ च इति निपातनात् साधुः
तस्य प्रयातस्य वरूथिनीनाम् पीडामपर्याप्तवतीव सोढुम् वसुन्धरा विष्णुपदं द्वितीयम् अध्यारुरोहे वरजच्छलेन
तस्येति प्रयातस्य प्रस्थितस्य तस्य कुशस्य वरूथिनीनां सेनानां कर्तॄणां कर्तृकर्मणोः कृति इति कर्तरि षष्ठी पीडां सोढुम् अपर्याप्तवती इव अशक्ता इव वसुन्धरा रजश्चलेन द्वितीयं विष्णुपदम् आकाशम् अध्यारुरोह इव इत्युत्प्रेक्षा
उद्यच्छमानागमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ति सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार
उद्यच्छमानेति पश्चात् कुशावत्या सकाशात् गमनाय प्रयाणाय तथा पुरः अग्रे निवेशे निमित्ते निवेष्टुं च इत्यर्थः उद्यच्छमाना उद्योगं कुर्वती समुदाङ्भ्यो यमोग्रन्थे इत्यस्य सकर्मकाधिकारत्वात् आत्मनेपदम् पथि च व्रजन्ति नृपस्य सा सेना यत्र पश्चात् पुरः मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृष्णताबुद्धिं चकार अपरिमिता तस्य सेना इत्यर्थः
तस्य द्विपानां मदवारिसेकात् खुराभिघातात् च तुरङ्गमाणाम् रेणुः प्रपेदे पथि पङ्कभावम् पङ्कोऽपि रेणुत्वमियाय नेतुः
तस्येति नेतुः तस्य कुशस्य द्विपानां मदवारिभिः सेकात् तुरङ्गमाणां खुराभिघाताच्च यथासङ्ख्यं पथि रेणुः रजः पङ्कभावम् पङ्कतां प्रपेदे पङ्कोऽपि रेणुत्वम् इयाय तस्य तावदस्तीत्यर्थः
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना चकार रेवेव महावीरावा बद्ध प्रतिश्रुन्ति गुहामुखानि
मार्गेति वैन्ध्येषु विन्ध्यसम्बन्धिषु कटकान्तरेषु नितम्बावकाशेषु कटकोस्त्री नितम्बोद्रेः इत्यमरः मार्गैषिणी मार्गावलोकिनी अत एव बहुधा विभिन्ना महाविरावा दीर्घशब्दा सा सेना रेवा इव नर्मदा इव रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका इत्यमरः गुहामुखानि बद्धप्रतिश्रुन्ति प्रतिध्वानवन्ति चकार अकरोत्।
स धातु भेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन् पुलिन्दैरुपपादितानि।
स इति धातूनां गैरिकादीनां भेदेन अरुणा यातनेमिः रथचक्रधारा यस्य प्रयाणे ये ध्वनयः क्षेडहेषादयः तन्मिश्राणि तूर्याणि यस्य एवंविधः सः प्रभुः कुशः पुलिन्दैः किरातैः उपपादितानि समर्पितानि उपायनानि पश्यन् विन्ध्यं यलङ्घयत्।
तीर्थे तदीये गजसेतुबन्धात् प्रतीपगाम् उत्तरतोऽस्य गङ्गाम् अयत्नवालव्यजनी बभूवुः हंसान्नभोलङ्घनलोलपक्षाः।
तीर्थ इति तदीये वैन्ध्ये तीर्थे अवतारे गजाः एव सेतुः तस्य बन्धात् हेतोः प्रतीपगाम् पश्चिमवाहिनीं गङ्गाम् उत्तरतः अस्य कुशस्य नभोलङ्घनेन लोलपक्षाः हंसाः अयत्नेन वालव्यजनीबभूवुः चामराणि अभूवन् अभूत तद्भावे च्विः।
स पूर्वजानां कपिलेन रोषात् भस्मावशेषीकृतविग्रहाणां सुरालयप्राप्तिनिमित्तमम्भः त्रैस्रोतसं नौलुलितं ववन्दे।
स इति सः कुशः कपिलेन मुनिना रोषात् भस्मावशेषीकृताः विग्रहाः देहाः येषां तेषां पूर्वजानां वृद्धानां सागराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिः लुलितं क्षुभितं त्रिस्रोतसः इदं त्रैस्रोतसं गाङ्गम् अम्भः ववन्दे।
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरैवाः वेदि प्रतिष्ठान्वितताध्वराणाम् यूपानपश्यच्छतशो रघूणाम्।
इति कैश्चित् अहोभिः अध्वनः अन्ते अवसाने कुशः सरैवाः कूलं समासाद्य वितताध्वराणां विस्तृतमखानां रघूणां वेदिः प्रतिष्ठा आस्पदं येषां तान् यूपान् शतशः अपश्यत्।
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान् सरयूतरङ्गान् तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः।
आधूयेति कुलराजधान्याः उपवनान्तवायुः कुसुमद्रुमाणां शाखाः आधूय ईषत् धूत्वा स्वरभिः मन्दश्च इत्यर्थः शीतान् सरयोतरङ्गांश्च स्पृष्ट्वा अनेन शैत्योक्तिः क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम।
अथोपशल्ये रिपुमग्नशल्यः तस्याः पुरः पौरसखः स राजा कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि।
अथेति अथ रिपुषु मग्नम् शल्यम् शङ्कुः शरः वा यस्य सः शल्यम् शङ्कौ शरे वंशे इति विश्वः पौराणाम् सखा पौरसखः कुलस्य ध्वजः चिह्नभूतः बली सः राजा चलाः चलन्तः वा ध्वजाः येषाम् तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्याः उपशल्ये ग्रामान्ते ग्रामान्त उपशल्यम् स्यात् इत्यमरः निवेशयामास।
ताम् शिल्पिसङ्घाः प्रभुणा नियुक्ताः तथागताम् सम्भृतसाधनत्वात् पुरम् नवीचक्रुरपाम् विसर्गात् मेघानिदाघग्लपितामिवोर्वीम्।
तामिति प्रभुणा नियुक्ताः शिल्पिनाम् तक्षादीनाम् सङ्घाः सम्भृतसाधनत्वात् मिलितोपकरणत्वात् ताम् तथागताम् शून्याम् इत्यर्थः पुरम् अयोध्याम् मेघाः अपाम् विसर्गात् जरसेकात् निदाघग्लपिताम् ग्रीष्मतप्ताम् उर्वीम् इव नवीचक्रुः परिपूरयाम् चक्रुः।
ततः सपर्याम् सपशूपहाराम् पुरः परार्ध्यप्रतिमा गृहायाः उपोषितैर्वास्तुविधानविद्भिः निर्वर्तयामास रघुप्रवीरः।
तत इति ततः रघुप्रवीरः कुशः प्रतिमाः देवताप्रतिकृतयः अर्च्याः इत्यर्थः परार्घ्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुरः उपोषितैः वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहिताम् सपशूपहाराम् सपर्याम् निर्वर्तयामास कारयामास। अत्र यन्तात् णिच् पुनः इत्यनुसन्धेयम्। अन्यथा वृत्तेः अकर्मकस्य करोत्यर्थत्वे कारयत्यर्थत्वाभावप्रसङ्गात् भवितव्यम् वृतेः अन्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात् प्रयोगान्तरस्य अपेक्षितत्वात्।
तस्याः स राजोपपदम् निशान्तम् कामीव कान्ता हृदयम् प्रविश्य यथार्हमन्यैरनुजीविलोकम् सम्भावयामास यथा प्रधानम्।
तस्या इति सः कुशः तस्याः पुरः सम्बन्धि राजोपपदम् राजशब्दपूर्वम् निशान्तम् राजभवनम् इत्यर्थः निशान्तम् भवनोषसोः इति विश्वः कामी कान्ताहृदयमिव प्रविश्य अन्यैः निशान्तैः अनुजीविलोकम् अमात्यादिकम् यथाप्रधानम् मान्यानुसारेण यथार्हम् यथोचितम् तत्तत् उचितगृहैः इत्यर्थः सम्भावयामास।